ध्यानञ्जनेन समवेक्ष्यतमः प्रदेशम् भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः दिव्याश्रितम् भुजगभूषणमुद्वहन्ती ये पादपद्ममिहते शिवते कृतार्थाः भूदारतामुदवहद्यदपेक्षया श्रीः भूदार एव किमतः सुमते लभस्व केदारमाकलितमुक्तिमहौषधीनाम् पादारविन्दभजनम् परमेश्वरस्य आशापाशक्लेशदुर्वासनादिभेदोद्युक्तैर्दिव्यगन्धैरमन्दैः आशाशाटीकस्य पादारविन्दम् चेतः पेटीम् भासिताम् मेतनोतु कल्याणिनम् सरसचित्रगतिम् सवेगम् सर्वेऽङ्गितघ्नमनघम् ध्रुवलक्षणाढ्यम् चेतस्तुरङ्गमधिरुह्य चरस्मरारे नेतः समस्तजगताम् वृषभादिरूढ भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्तटाकः तज्जन्म सस्यमखिलम् सफलम् च नान्यत् बुद्धिस्थिरा भवितुमीश्वरपादपद्मसक्तावधूर्विरहिणीव सदा स्मरन्ती सद्भावनास्मरणदर्शनकीर्तनादिसम्मोहितेव शिवमन्त्रजपेन विन्ते सदुपचारविधिष्वनुबोधिताम् सविनयाम् सुहृदम् समुपाश्रिताम् मम समुद्धर बुद्धिमिमाम् प्रभो वरगुणेन नवोढवधूमिव नित्यम् योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथम् कठोरयमराड्वक्षः कवाटक्षतिः अत्यन्तम् मृदुलम् त्वदङ्घ्रियुगलम् हामे मनश्चिन्तयत्येतल्लोचनगोचरम् कुरु विभो हस्तेन संवाहये एष्यत् येष जनिम् मनोऽस्य कठिनम् तस्मिन्नटानीति मद्रक्षायै गिरि सिम्नि कोमलपदन्यासः पुराभ्यासितः नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनम् शम्भो किमर्थम् तव कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः कञ्चित्कञ्चितवेक्षणैश्च च नुतिभिः कञ्चिद्दशामीदृशीम् यः प्राप्नोति मुदा त्वदर्पितमना जीवन् समुक्तः खलु बाणत्वम् वृषभत्वम् त्वमद्धवपुषा भार्यत्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादिरूपं दधौ त्वत्पादे नयनार्पणं च कृतवां त्वद्देहभागो हरिः पूज्यात् पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते शिव तव परिचर्या सन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवसत्वम् जलधिमथन दक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः अशनकुसुमभूषा वस्त्रमुख्यां सपर्यां कथय कथमहन्ते कल्पयानीन्दुमौले पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् जाने मस्तकमङ्घ्रिपल्लवमुमा जानेन तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा अशनङ्गरलं फणीकलापो वसनं चर्म च वाहनं महोक्षः मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि यदा कृताम्भो निधिसेतु बन्धनः करस्थलादः कृतपर्वताधिपः भवानि ते लङ्घितपद्मसम्भवः तदा शिवाच्चस्तव भावनक्षमः नतिभिर्नुतिभिस्त्वमीश पूजाविधिभिर्ध्यानसमाधिभिर्न तुष्टः धनुषा मुसलेन चाश्मभिर्वा वदते प्रीतिकरं तथा करोमि वचसा चरितं वदामि शम्भोः अहमुद्योगविधासु ते प्रसक्तः मनसा कृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि आद्या विद्या हृद्गता निर्गतासीद्विद्या हृद्या हृद्गता त्वत्प्रसादात् सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्यम् कटाक्षैः सोमकलाधरमौलौ कोमलघनकन्धरे महामहसी स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् सारसनाते नयने तावेव करौ स एव कृतकृत्यः यायेयौ यो भर्गं वदति क्षेते सदाच्च तस्मरति अतिमृदुलौ मम चरणावति कठिनन्ते मनोभवानीश इति विचिकित्सां सन्त्यज शिव कथमासीद्गिरौ तथा प्रवेशः धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया पुरहरचरणालाने हृदयमभेदं बधान चिद्यन्त्रैः प्रचुरत्यभितः प्रगल्भवृत्या मदवानेश मनः करीगरीयान् परिगृह्य नयेन भक्तिरज्ज्वा परमस्थाणुपदं दृढं नयामुम् सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेकां कल्याणीं देवगौरीप्रियमम कविता कन्यकां त्वं गृहाण इदन्ते युक्तं वा परमशिवकारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिवोर्दर्शनधिया हरिब्रह्माणौ तौ दिवि भुवन्तौ श्रमयुतौ कथं शम्भो स्वामिं कथय मम वेद्योऽसि पुरतः स्तोत्रेणालमहं प्रवच्मि न मृषा देवाविरिञ्चादयः गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः माहात्म्याग्रविचारणप्रकरणे धानातु स्तोमवद्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता।